ओम नमो भगवते वासुदेवाय। अथाशीतितमोऽध्यायः। राजोवाच भगवन्यानि चान्यानि मुकुन्दस्य महात्मनः वीर्याणि अनन्तवीर्यस्य श्रोतुमिच्छामहे प्रभो। कोनु श्रुत्वा सकृत् ब्रह्मन्नुत्तमश्लोकसत्कथाः विरमेत विशेषज्ञो विषण्णः काममार्गणैः। सा वाक्यया तस्य गुणान् गृणीते करौ च तत्कर्म करौ मनश्च। स्मरेद् वसन्तं स्थिरजङ्गमेषु शृणोति तत्पुण्यकथा सकर्णः। शिरस्तु तस्योभयलिङ्गमानमेत्तदेव यत् पश्यति तद्धि चक्षुः। अङ्गानि विष्णोरसतज्जनानां पादोदकं यानि भजन्ति नित्यम्। सूत उवाच विष्णुरातेन सम्पृष्टो भगवान् बादरायणिः वासुदेवे भगवति निमग्नहृदयो ब्रवीत्। श्रीशुक उवाच कृष्णस्यासीत् सखा कश्चित् ब्राह्मणो ब्रह्मवित्तमः विरक्त इन्द्रियार्थेषु प्रशान्तात्मा चितेन्द्रियः यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी। तस्य भार्या कुचैलस्य क्षुत्क्षामा च तथाविधा पतिव्रता पतिं प्राह म्लायता वदनेन सा। दरिद्रासीदमाना सा वेपमानाभिगम्य च ननु ब्रह्मन् भगवतः सखा साक्षाच्छ्रियः पतिः ब्रह्मण्यश्च शरण्यश्च भगवान् सात्वतर्षभः। तमुपैः महाभाग साधूनां च परायणम् दास्यति द्रविणम् भूरि सीदते ते कुटुम्बिने। आस्ते धुना द्वारवत्याम् भोजवृष्ण्यन्धकेश्वरः स्मरतः पादकमल मात्मानमपि यच्छति। किम् वर्थकामान् भजतो नात्यभीष्टान् जगद्गुरुः। स एवम् भार्यया विप्रो बहुशः प्रार्थितो मृदुः। अयम् हि परमो लाभ उत्तमश्लोकदर्शनम् इति सञ्चिन्त्य मनसा गमनाय मतिम् दधे। अप्यस्त्युपायनम् किञ्चित् गृहे कल्याणि दीयताम्। याचित्वा चतुरो मुष्टीन् विप्रान् पृथुकुतण्डुलान् चैलखण्डेन तान् बद्ध्वा भर्त्रे प्रादादुपायनम्। सदानादाय विप्राग्र्यः प्रययौ द्वारकाम् किल। कृष्णसन्दर्शनम् मह्यम् कथम् स्यादिति चिन्तयन् त्रीणि गुल्मान्यतीयाय तिस्रः कक्षाश्च सद्विजः विप्रो गम्यान्धकवृष्णीनाम् गृहे स्वच्युतधर्मिणाम् गृहम् द्व्यष्टसहस्राणाम् महिषीणाम् हरेर्द्विजः। विवेशैकतमम् श्रीमत् ब्रह्मानन्दम् गतो यथा तम् विलोक्याच्युतो दूरात् प्रिया पर्यङ्कमास्थितः। सहसोत्थाय चाभ्येत्य दोर्भ्याम् पर्यग्रहीन्मुदा सख्युः प्रियस्य विप्रर्षे रङ्गसङ्गाति निर्वृतः। प्रीतो व्यमुञ्चद्दबिन्दून् नेत्राभ्याम् पुष्करे क्षणः अथोपवेश्य पर्यङ्के स्वयम् सख्युः समर्हणम्। उपरीत्यावनिज्यास्य पादौ पादावने जनीः अग्रहीच्छिरसा राजन् भगवान् लोकपावनः। व्यलिम्पत् दिव्यगन्धेन चन्दना गुरुकुङ्कुमैः धूपैः सुरभिभिर्मित्रम् प्रदीपावलिभिर्मुदा अर्चित्वा वेद्यताम्बूलम् गाम् च स्वागतमब्रवीत्। कुचैलम् मलिनम् क्षामम् द्विजम् धमनि सन्ततम् देवी पर्यचरत् साक्षाच्चामरव्यजनेन वै। अन्तः पुरजनो दृष्ट्वा कृष्णेनामलकीर्तिना विस्मितोऽभूदतिप्रीत्या अवधूतम् सभाजितम्। किमनेन कृतम् पुण्यमवधूतेन भिक्षुणा श्रियाहीनेन लोकेऽस्मिन् गर्हितेनाधमेन च। योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृतः पर्यङ्कस्थाम् श्रियम् हित्वा परिष्वक्तो ग्रजो यथा कथयाञ्च क्रतुर्गाथा पूर्वा गुरुकुले सतोः। आत्मनो ललिता राजन् करौ गृह्य परस्परम्। श्रीभगवानुवाच अपि ब्रह्मन् गुरुकुलाद् भवता लब्धदक्षिणात् समावृत्तेन धर्मज्ञ भार्योढा सदृशी न वा। प्रायो गृहेषु ते चित्तमकामविहतम् तथा नैवातिप्रियसे विद्वन् धनेषु विदितम् हि मे। केचित् कुर्वन्ति कर्माणि कामैरहत चेतसः त्यजन्तः प्रकृतिर्दैवैर्यथाहम् लोकसङ्ग्रहम्। कच्चित् गुरुकुले वासम् ब्रह्मन् स्मरसि नौ यतः द्विजो विज्ञाय विज्ञेयम् तमसः पारमश्नुते। स वै सत्कर्मणाम् साक्षात् द्विजातेरिह सम्भवः आद्योऽङ्गयत्राश्रमिणाम् यथाहम् ज्ञानदो गुरुः। नन्वर्थको विदा ब्रह्मन् वर्णाश्रमवतामिह ये मया गुरुणा वाचा तरन्त्यञ्जो भवार्णवम्। नाहमिज्या प्रजातिभ्याम् तपसोपशमेन वा तुष्येयम् सर्वभूतात्मा गुरुशुश्रूषया यथा अपि न स्मर्यते ब्रह्मन् वृत्तम् निवसताम् गुरौ गुरुदारैश्चोदितानाम् इन्धना नयने क्वचित् प्रविष्टानाम् महारण्यमपर्तौ सुमहद्विज वातवर्षमभूत् तीव्रम् निष्ठुरास्तनयत्नवः सूर्यश्चास्तम् गतस्तावत् तमसा चावृता दिशः निम्नम् कूलम् जलमयम् न प्राज्ञायत किञ्चन वयम् भृशम् तत्र महानिलाम्बुभिर्निहन्यमाना मुहुरम्बु सम्प्लवे दिशो विदन्तोऽथ परस्परम् वने गृहीतहस्ता परिबभ्रिमातुराः एतद्विदित्वा उदिते रवौ सान्दीपनिर्गुरुः अन्वेषमाणो न शिष्यानाचार्योपस्य दातुरान् अहो हे पुत्रका यूयमस्मदर्थेति दुःखिताः आत्मा वै प्राणिनाम् प्रेष्ठस्तमनादृत्यमत्पराः एतदेव हि सच्छिष्यैः कर्तव्यम् गुरुनिष्कृतम् यद्वै विशुद्धभावेन सर्वार्थात्मार्पणम् गुरौ तुष्टोऽहम्भो द्विजश्रेष्ठाः सत्याः सन्तु मनोरथाः छन्दांस्य यातयामानि भवन्त्विह परत्र च इत्थम् विधान्यनेकानि वसताम् गुरुवेश्मसु गुरोरनुग्रहेणैव पुमान् पूर्णः प्रशान्तये ब्राह्मण उवाच किमस्माभिरनिर्वृत्तम् देवदेव जगद्गुरो भवता सत्यकामेन येषाम् वासो गुरावभूत् यस्यच्छन्दोमयम् ब्रह्म देह आवपनम् विभो श्रेयसाम् तस्य गुरुषु वासोऽत्यन्तविडम्बनम् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे श्रीरामचरिते शीतितमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।